इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य जम्मू कश्मीर राज्ये सोनमर्ग आन्तरभौम मार्ग परियोजनाम् उद्घाटयिष्यति। अयम् आन्तरभौम मार्गः श्रीनगर सोनमर्ग इत्यनयोः मध्ये लेहस्थलस्य गमनाय सर्वतोपलब्धं कस्मिन्नपि ऋतौ सम्पर्कं प्रदास्यति। यात्रावधौ प्रधानमन्त्री निर्माण श्रमिकानपि मिलिष्यति, अपि च तेषां कार्याणां प्रशंसाम् अपि करिष्यति। विदेशमन्त्री डॉ एस जयशंकरः अद्यारभ्य स्पेन देशस्य द्विदिवसीय यात्रायै प्रस्थास्यति। तस्य इयं प्रथमा स्पेन देशस्य यात्रा भवेदिति। प्रवासावधौ डॉ जयशंकरः स्वीयेन स्पेन देशीयेन समकक्षेण मैनुअल एल्बेरेज इत्यमुना साकं द्विपक्षीय सम्बन्धानां समग्र पदक्षेपैः सह पारस्परिक हितानां क्षेत्रीय वैश्विक प्रसंगेषु चर्चां विधास्यति। असौ स्पेन देशीय राजदूतानां नवमं वार्षिक सम्मेलनमपि सम्बोधयिष्यति, तथा च भारतीय समुदायेन सह संवादं करिष्यति। उत्तर भारते विशिष्टतया पंजाब हरियाणा हिमाचल प्रदेश दिल्ली जम्मू चंडीगढ़ राज्येषु सस्योत्सवः लोहड़ी पर्व हर्षोल्लासेन आचर्यते। इदं हि पर्व शीतकालस्य दीर्घाः रात्रीः समाप्य ग्रीष्मकालस्य दीर्घाणि दिनानि स्वागतीकरोति, यतो हि सूर्यः एतस्मिन् समये उत्तरगोलार्धं प्रति स्वयात्रं समारभते। अस्मिन् शुभपर्वणि जनाः अग्निं परितः लोकनेत्राणि अपि कुर्वन्ति, मित्रैः परिवारेण च सह उपहाराणां विनिमयम् अपि कुर्वन्ति। इदं पर्व सस्यानां संग्रहणेन सुखेन च सम्बद्धं वर्तते। शुभावसरे एतस्मिन् राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः जगदीप धनखड़ः जनेभ्यः शुभकामनाः प्रदत्तवन्तौ। पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयं पवित्रं पुण्ययुतञ्च महाकुम्भमेलापकम् अद्य पौष पूर्णिमायाः सर्वप्राथम्येन अमृतस्नानेन सह प्रयागराजनगरे समारभत। गंगा यमुना सरस्वती नदीनां त्रिवेणी संगमस्य विभिन्नेषु घट्टेषु बहवः लक्षसंख्यकाः श्रद्धालवः तीर्थयात्रिणः पर्यटकाः साधवश्च पवित्रनद्यां स्नानम् आचरन्ति इति। अयं भव्यः अलौकिकः दिव्यः च महाकुम्भः फरवरी मासस्य षड्विंशति दिनांकपर्यन्तं महाशिवरात्रिं यावत् प्रचलिष्यति। एतद् आयोजनं सुरक्षितं स्मरणीयं च भवेदिति सुनिश्चेतुं प्रशासनेन सर्वविधोपायाः कृताः। अपरत्र अस्मै महाकुम्भाय सप्तस्तरीया सुरक्षाव्यवस्थापि कृतास्ति। एतस्मिन् महाकुम्भे पञ्चचत्वारिंशत् कोटिजनाः भक्ताः च उपस्थिताः भविष्यन्ति इति अनुमीयते। तदर्थं भारतीय रेलवे विभागेनापि दशसहस्रं यावत् रेलयानानि अपि च त्रिंशत् संख्यकानि विशिष्टानि रेलयानानि प्रचाल्यन्ते। थाईलैंड देशः श्वः आरभ्य शुक्रवासरं यावत् बैंकॉक नगरे पञ्चमं आसियान डिजिटल मिनिस्टर्स इत्येतं सम्मेलनम् आयोजयिष्यति। उपप्रधानमन्त्रिणः नेतृत्वे अयं कार्यक्रमः समायोज्यते। ऋतुविज्ञान विभागेन प्रोदीरितं यत् हिमाचल प्रदेशे राजस्थाने च शीतलहर्याः अनुमानं विद्यते। पंजाबे राजस्थाने हरियाणायां चण्डीगढे उत्तरप्रदेशे च कतिपय पूर्वभागेषु रात्रौ प्रातःकाले च कुञ्झटिकायाः संभावना वर्तते। हिमाचल प्रदेशे उत्तराखण्डे पश्चिमबंगालस्य गांगीय क्षेत्रे च सघनकुञ्झटिकायाः अनुमानमपि ऋतुविज्ञान विभागेन प्रकटितम्। सिक्किमे ओडिशायां नागालैण्डे मणिपुरे मिजोरमे त्रिपुरायां च सघनकुञ्झटिका प्रवर्तयिष्यते इति वार्ताः।